नमस्ते, पुनः वर्गं प्रति स्वागतम्। आदौ गतसप्ताहात् प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु।
शेखरजी, ऐ हेव् वन्,
मम प्रश्नः अस्ति इति वाक्यं,
मम प्रश्नः अस्ति, मम एकः प्रश्नः अस्ति। दिस् इस् अबौट् लेट् मी जस्ट् पुल् देट् पीडीएफ। So, you remember that there is a different way, for example, pathate, we, bahuvachan becomes pathante, and ekvachanam dvivachanam, but in case of janate or krinate, it's a different. So, I was just trying to, you know, revise them, but is there any way that we can use, like, a method? Because if it is shaknote, then we introduce shaknutaha, like, or shaknuvanti, word gets introduced in between. But in case of karoti, it's kurutaha, kurvanti, again it's word. But for example, roditi, so there is a way, roditi, ro means o is gets converted into u. I mean, that's how I have explained it to myself. So, rodutaha, no new, I would say, akshara or vyanjan is getting introduced. Like in case of kuru shuknote, it's were. But in this, in some cases, we don't introduce any new vyanjan. So,
satyam, satyam.
So, is there any way that I can...
Asti. Tatra pashyatu, janati, tatra na... Dirgha nakaraha.
That's fine. Janat, I don't have any confusion in that case. It's clear. It's just few examples like roditi.
Roditi sarvada tatra apavada heva. Roditi is always an exception. Roditi, dadati, you know, these are all exceptions. That's it is just the way it is. Okay.
I think shaknote or shrunote, these are exceptions because in Bahuvachan we introduce like ver gets added.
No, if you say shaknote an exception, that is a probably, you know, because that's the one of its kind. That's the first word that you have seen. But after seeing shrunote, you shouldn't say that is an exception. Because shaknoti, shrunoti, prapnoti, they all fall in the same pattern.
Same pattern.
The first
one
is always
there. There are many patterns within this.
Of course, there are 10 different patterns. There are 10 different patterns. Okay?
Oh, 10 different patterns.
Yeah, 10 different patterns.
Okay.
Okay. We'll worry about all those in the next 1.5 years. Not until then.
Okay. Thank you.
Ashikriji, mama ekam prashna asti.
एकः प्रश्नः एकः प्रश्नः
एकः प्रश्नः अस्ति। ऐ एम् हियर्, इतः किं वदामि?
न अत्र ऐ एम् हियर् नाम अहम् अत्र अस्मि अथवा अहमस्मि तावदेव।
Here it is not Asami, is it? It's just Asami.
No, Asmi, Asmi. We'll get to that today. That adhyaka kurmaha.
Okay.
आदौ एकवारम् अन्येषां प्रश्नाः न सन्ति इति मत्वा अग्रे सरामि। अस्तु, एदौ इतः आरभ कोऽपि पठतु कृपया। तत् दृश्यते किल अधुना? Hoping I'm not sharing the screen like I did the last time. Hang on. You don't see the pre-conference screen now, right? Okay, great.
No.
Okay, wonderful. Bhavatah prashna asit kila Natarajan Mahodaya? Bhavan eva pathatu. Adu.
Okay. Aham balaha. Tvam api balaha. Ayam api balaha. Vayam balaha. Tvam patam. पठति त्वं किं करोषि? अहं पाठं पठामि, अहं पाठं लिखामि, अहं किं करोमि, त्वं पाठं लिखसि? अयं पाठं पठति वयं पाठं पठामः वयं पाठं लिखामः
तिष्ठतु तिष्ठतु अस्तु अत्र पश्यन्तु सर्वे कृपया अहं बालः ओके अत्र पश्यतु त्वं नाम अपरः कश्चन पुरुषः अस्ति अहं बालः त्वं बालः पश्यतु अहं बालः त्वं बालः अयम् अपि बालः अस्तु एषः एतं बालकम् उद्दिश्य वदति त्वं बालः इति अथवा भवान् बालः यथा पूर्वं दृष्टं तथैव एषः वदति अयं बालः अयम् अपि बालः न केवलम् अहं त्वम् अयमपि एषः अपि बालः एव एषः अपि बालः वयम् एकं द्वे त्रीणि एकं द्वे अत्र त्रयः आहत्य त्रयः बालाः वयं बालाः अस्तु वयं बालाः अत्र पश्यतु एषः एकः बालः अस्ति प्रथमः बालः एकः बालकः एषः अपि बालः बालकः आवां बालौ आवां बालौ वयं बालाः अयं बालः एषः अपि बालः आवां बालौ वयं बालाः स्पष्टं वा
वि आल् आर् बाय्स्
प्रेटि मच् यस्
सो सो नमस्ते शेखर् जी ऐ थिङ्क् सो फर् टु किड्स् आल्सो ऐ थिङ्क् वयं बालः
न न न तदेव वदामि आवां
बालाः
आवां बालौ क्षम्यताम् आवां बालौ वयं बालाः
ऐ थाट् इट् वास् वयं बाले
न न न न न यथा स्यूतः स्यूताः सूर्यः सूर्याः तथा वयं बालाः आवां बालौ द्विवचनं किल अत्र स्त्रीलिङ्गे बाले सत्यं किन्तु पुल्लिङ्गे बालौ
इन् द प्लूरल् ऐ थॉट यू नो फॉर फॉर स्त्रीलिङ्ग इट इज बालाः बट इफ इट इज द पुल्लिङ्ग इट इज द बाले
ओके अस्तु अत्र स्पष्टम् अस्तु कुतः इति तत्र केवलं सर्वनामपदेषु एव तथा लैक् एज़ इन् प्रोनौन्स् अथ यथा एषः एतौ एति प्रोनौन् अस्ति किल तत्र सर्वनामपदं केवलं तत्र अन्ते एकारः भवति किन्तु नामपदेषु प्रापर् नौन्स् सर्वत्र बालाः सूर्याः रामाः इयं क्रमः अयं क्रमः सत्यं सत्यं बालः बालाः इति भवति तावदेव स्पष्टं वा एतावता पङ्क्ति स्पष्टम् अस्तु
I think even when I was trying to do the homework, most of the examples and what we cover are like masculine words.
Yeah,
and the
correct.
Minute, I also saw that. The minute there is a feminine, I'm getting all confused. Yeah.
Correct, yeah. I also feel the same.
Kimartham, Tatra? Astur, Pashyama. Adho, etat patitva, tat Pashyama. Yeah, Ganeshan. Just hold your thoughts there, okay? Agre, Padmaja Bhagini, Bhavati Patitva.
अहम् अत्र अस्मि त्वं कुत्र असि अहम् अपि अत्र अस्मि अयं कुत्र अस्ति अयम् अपि अत्र अस्ति वयम् अत्र स्मः
अहम् अस्मि अस्तु अहम् अस्मि त्वमसि सः अस्ति पूर्वम् अस्माभिः दृष्टं किल यथा सः अस्ति सः अथवा अयं डजन्ट् मेटर् एनिथिङ्ग् अथवा रामः इट् कुड् बि एनिथिङ्ग् सः अस्ति किन्तु त्वं अस्ति अहम् अस्मि अहम् अस्मि अहम् अस्मि आवां स्वः वयं स्मः अहम् अस्मि आवां स्वः वयं स्मः ओके What is that, I'm sorry?
I'm trying to equate it to Saha and Sta for...
Satyam.
Right?
Yes,
that's
exactly.
The equivalent of Saha and Smaha. Okay.
Yes. So, Agre, Anjuji, can you?
Tvam chitram pashyami. अहं चित्रं
पश्यसि 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 पश्यसि
त्वं कथां शृणोति अहं कथां शृणोमि त्वं चित्रं पश्यसि अहं चित्रं पश्यामि अयम् अपि चित्रं पश्यति अयं सोरि वयं चित्रं पश्यामः त्वं कथां शृणोषि अह कथां शृणोमि अयम् अपि कथां शृणोति वयं कथां शृणुमः
अस्तु पश्यतु अहं लिखामि अहं लिखामि आवां लिखावः आवां लिखावः वयं लिखामः एकमहं दर्शयिष्यामि तेन इतोपि स्पष्टं स्यात् एकनिमिषम्
शेखरजी जस्ट् वन् क्वश्चन् अहम् अस्मि त्वं स्वः एण्ड् वाट् इस् फोर् समः वयं
स्मः वयं स्मः ओके अत्र द्रष्टुं शक्नोति इति मन्ये
त्वम् इस् नाट् स्वः त्वम् इस् अस्ति एण्ड् अवम् इस् स्वः
त्वम् असि त्वम् असि त्वम् असि अहम् अस्मि आवां स्वः वयं स्मः
सो शेखजी त्वम् असि एण्ड् अहम् अस्मि दे बोथ् द मीनिङ्ग् सेम् राइट
ऐ मीन् हौ केन् यू एक्सिस्ट् एण्ड् ऐ एक्सिस्ट् मीन् द सेम्
त्वम् असि
Tvam Asi means you are here or you are there, you exist.
I'm here. I mean like...
you are here. And Aham Asi, I'm here.
Yeah, I'm here. Okay.
Atra, Pashyantu Krupaya, Atra Asti Kilayatam. Namati, Udaharanaya. Saha, Namati. Okay, I'll zoom on it, okay. Before anyone else complains. Okay. Saha, Namati. तौ नमतः ते नमन्ति त्वं नमसि त्वं नमसि युवां नमथः यूयं नमथ अहं नमामि आवां नमावः वयं नमामः उदाहरणाय एवं भवति पश्यन्तु शङ्करः पश्यति शङ्करः मुरली प पश्यतः शङ्करः मुरळी पद्मजा पश्यन्ति च पश्यन्ति ओके त्वं त्वम् अञ्जु पश्यसि ओके त्वम् अञ्जु पश्यसि नटराजन् अञ्जु युवां नटराजन् अञ्जु च युवां पश्यथः नटराजन् अञ्जु रङ्गा च यूयं पश्यथ अहं शेखरः पश्यामि अहं रवि च पश्यावः अहं रवि तथैव कौसल्या च पश्यामः वयं पश्यामः इति अर्थः तत्र अहं रवि कौसल्या च वयं पश्यामः इति अर्थः क्लियर् प्रश्नाः सन्ति वा अत्र
So, likami, for example, going back to that example, aham likami, avam likavaha, yam likava.
Punah ek vara madato?
Aham likami, avam likamaha.
Avam likavaha, likavaha.
Avam likavaha. Vayam lika.
लिखामः लिखामः
लिखामः
अत्र पश्यतु नमामः नमामः स्मरामः लिखामः पठामः एवं रीत्या अस्तु अधुना एकां कथां पठामः प्रायः इतोपि स्पष्टं स्यात् पश्यामः कौसल्याजी आरम्भं करोतु कृपया
उच्चैः पठत अवगच्छत च मेखला भो पुण्यप्रिये प्रतिदिनं सायं भवती कुत्र गच्छति पुण्यप्रिया अहं प्रतिदिनं वेदान्तभवनं गच्छामि मेखला वेदान्तभवने किं भवति पुण्यप्रिया तत्र वेदान्तप्रवचनं भवति मेखला प्रवचने किं वदन्ति
तिष्ठतु तिष्ठतु कृपया धन्यवादः एतावत् स्पष्टं किं मेखला एका महिला अस्ति तथैव पुण्यप्रिया अपरा महिला अस्ति पश्यतु सम्बोधने भो पुण्यप्रिये मेखला पुण्यप्रियाम् उद्दिश्य वदति तस्य नाम उच्चारणं करोति भो पुण्यप्रिये इति सम्बोधनायां यथा सीता सीते हे सीते लता लते सम्बोधनायां पुण्यप्रिया इत्यस्य पुण्यप्रिये इति रूपं भवति भोः पुण्यप्रिये प्रतिदिनं दिनं दिनं प्रतिदिनं सायं नाम ईविनिङ्ग् इति अर्थः प्रतिदिनं सायं भवती भवती कुत्र गच्छति इति वाक्यं भो पुण्यप्रिये प्रतिदिनं सायं भवती कुत्र गच्छति इति वाक्यं
इस् द भो जेंडर स्पेसिफिक
नो 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 भो फर् एनी वन् एक्चुअली
ओके शिखरजी एव्री एव्रीडे किं वदामि
तदेव प्रतिदिनं
प्रतिदिनं आर् अनुदिनम् अनुदिनं
प्रतिदिनं प्रतिदिनं प्रतिदिनं
सो दिस् सेण्टेन्स् इस् कामन् फर् पुल्लिङ्ग स्त्रीलिङ्ग प्रतिदिनं सायं भवती कुत्र गच्छति
गच्छति भवती ओन्लि या ओन्लि या भवती हियर् इस् अ जेनरल् स्पेसिफिक् वर्ड् या ओके इदमेव वाक्यं पश्यन्तु प्रतिदिनं सायं त्वं कुत्र गच्छसि
भवती
या भवती या सो वाट् because I am saying bhavati, I am saying gachati. If I say tvam, I will say gachasi.
Oh, okay. Only for tvam we should say gachasi. So bhavati I should not say, because I thought bhavan bhavati is the second person, right? Like meaning
no, first person.
Okay, then I got confused there. I thought bhavan bhavati means you, right? Bhavan and bhavati doesn't mean you.
Yes.
How are you?
But in first person. In first person.
Oh, okay.
Okay. Pratidinam, anudinam, you know, they all actually mean the same. Yeah, there's no problem.
Okay.
You can say anudinam as well.
Okay.
Pratidinam is more widely used. That's it. Anudinam can also be said. It's not a problem.
Okay.
Daily. It just means varthi asti. Anudinam api. Okay. Pashyantu. Pratidinam sayam bhavati kutra gachati. Pratidinam sayam tvam kutra gachasi. Okay. Tateva. If a person is like, if he wants to question himself, you can say pratidinam sayam aham kutra gachami,
right? Yeah.
Okay,
so we can just replace that like anything, right? Like pratidinam sayam avam kutra gachati,
kutra gachavaha avam
kutra gachavaha. Okay,
evam rita chintayantu. Etavata spashtam.
Sorry, I think I'm confused about that. Bhavan, Bhavati and Tvam. Bhavan, Bhavati, what is it? I thought it's the same. What is the difference between the Tvam,
yeah,
and Bhavan, Bhavati?
Okay. Think of it like this. Okay. Aham is here.
Yeah.
Okay. Tvam is here. Anything than other than aham and tvam is first person.
Okay.
Pratham purusha.
Yes. Yeah. Pratham purusha.
Okay.
At pratham purusha, madhyam purusha, uttam purusha. Anything other than aham and tvam falls into pratham purusha.
Okay. So then how do you differentiate between yeshaha and bhavan? Is there any difference between yeshaha and bhavan then?
No,
because bhavan,
Eshaha means this person, bhavan,
right,
means you, but it's not tvam. Bhavan is gender specific, tvam is not gender specific. Bhavan you can only say for pumlinga.
It is you,
correct. Yeah.
In pratham purusha.
That's it is used in pratham purusha, that's it.
Okay. You in pratham.
Okay, but in the context of English language, is there a difference between, can we differentiate the two? Because English has only one you, right?
Yeah, like
but
I said from the very beginning, do not translate.
Do not translate. Okay.
In fact, the pratham purusha itself is like confusing, but now I've got over it. When we say pratham purusha, it looks like first person.
Yeah, correct. Yeah.
But
it's you have to twist it.
Is first,
exactly.
Person.
Yeah. Exactly.
It is actually,
okay,
third person.
Yeah, it's third person.
Correct.
It's a bit confusing.
Yeah.
Okay.
Okay. Aham gachami. Itat sastam va? Agree. Aham pratidinam vedanta bhavanam gachami. Aham kutra gachami pratidinam. Aham atra prashyato prashna hasti kutra gachati. Uttaramasti vedanta bhavanam gachami. Vidyalaya hasti. Udaharanaya vidyalaya hasti. Aham pratidinam vidyalayam gachami. Karyalaya. Aham pratidinam karyalayam gachami. Aham pratidinam mandiram gachami. Spashtam?
Spashtam.
Okay. Anantram asti prashnaha. Vedanta bhavane kim bhavati? Kutra bhavati? Yeshaha. Asa ayesha. Pratidinam vedanta bhavanam gachati. Vedanta bhavane kim bhavati? Iti prashnaha. Tatra vedantara pravachanam bhavati. Pravachane kim vadanti.
Sorry, one question. Here the bhavati means what becomes, is it what happens there? Is it?
Tatra pashyato. Uttama prashnaha. Bhavati nava, yes, what happens there? Ityavartha. Tatra pashyato. Bha, va, bedha asti ubhayatra api tat avagacchantu kripaya sarve. Bhavati nama bhavati. भवति इदं क्रियापदम्
this becomes right basically
based on
our kriya padani it is
what becomes. Happening itsmin arthe satyam
okay
tatra pravachanam bhavati spashtam va pravachane kim kim vadanti adhana prashna puna astu pravachanam bhavati tatra kintu pravachane kim vadanti astu pravachane kim vadati iti prashne krute ravi mahoday patatu this is very scared, Mahavaya. Just because you're reading now.
He's scared.
Yeah, okay. I probably shouldn't use this anymore. Okay. अनन्तरं तत्र किं भवति पठतु पुण्यप्रिया किं वदति अधुना
फ्रोम् दट् लैन् तत्र वेदान्तप्रवचन भवति देन् मेखला प्रवचने किं वदन्ति पुण्यप्रिया तत्र जीवः तत्र जीवः ब्रह्म जागृति मोक्षः जगत् सारि ब्रह्म जगत् मोक्षः
शाश्वतसुखं
शाश्वतसुखम् इति एतन् विषयान् बोधयन्ति मेखला एतशः
विषयान्
एतेषः
विषयान्
एतेषां विषयाणां श्रवणे भवत्याः कः लाभः पुण्यप्रिया एतासां
विषयाणां
एतेषां विषयाणां श्रवेण अहं सुखस्य दुःखस्य च वास्तविकं स्वरूपं जानामि शान्तिं च अनुभवामि
तिष्ठतु तिष्ठतु अस्तु अत्र किमर्थम् अत्र विषयान् इति पदमस्ति अस्तु श्रवणेन किमर्थमस्ति एताः प्रश्नाः अधुना मास्तु किन्तु सम्भाषणस्य भावः स्पष्टः वा इति एव प्रश्नः डोण्ट् आस्क् मी वै वी हेव् श्रवणेन वाट् डस् दिस् वर्ड् मीन् नो डिज् अण्डर्स्टाण्ड् द मीनिङ्ग् आफ् द कान्वर्सेशन् द जिस्ट् आफ् इट् अत्र बोधयन्ति पश्यन्तु अत्र सर्वत्रापि प्रवचने किं वदन्ति अत्र पश्यन्तु प्रवचने किं वदन्ति अत्र क्रियापदं बहुवचने अस्ति के वदन्ति इति न उक्तम् अत्र तत्र के वदन्ति इति प्रश्नः अस्ति अत्र तत् वयं न जानीमः अधुना भवतु किन्तु प्रश्ने तु किं वदन्ति इति प्रश्ने कृते तत्र स्पष्टमस्ति अनेके जनाः तत्र प्रवचनं वदन्ति इति प्रवचनं भवन्ति किन्तु प्रवचने अनेके जनाः बोधयन्ति इति स्पष्टं भवति तत्र जीवः ब्रह्म जगत् मोक्षः शाश्वतसुखम् इति एतान् विषयान् बोधयन्ति पुनः तत्र बहुवचने अस्ति एतेषां विषयाणां श्रवणेन केवलं श्रवणं करोति चेत् कः लाभः पश्यतु लाभः कः लाभः लाभः पुंलिङ्गपदम् इत्यस्मात् कः न तु लाभः किं लाभः पुंलिङ्गपदमस्ति अतः कः इति प्रश्नः अत्र लाभः कः समयः कः एषः कः सः कः तथा अस्तु एतेषां विषयाणां श्रवणेन अहम् अनुभवामि अहं किम् अनुभवामि वास्तु वास्तविकं स्वरूपं जान अहं शान्तिं शान्तिम् अनुभवामि अहं शान्तिम् अनुभवामि तथैव अहं जानामि किं जानामि वास्तविकस्वरूपं जानामि कस्य वास्तविकस्वरूपं जानामि सुखस्य वास्तविकस्वरूपं दुःखस्य वास्तविकस्वरूपं जानामि अहं सुखं दुःखं जानामि इति न वदति सा अहं सुखस्य स्वरूपं जानामि दुःखस्य स्वरूपं जानामि अस्तु सुखं जानामि दुःखं जानामि इति न वदति स्वरूपं जानाति सुखस्य स्वरूपं दुःखस्य स्वरूपं जानाति का पुण्यप्रिया जानाति पुण्यप्रिया वदति किल अहमित्यनेन पुण्यप्रिया अत्र पुण्यप्रिया जानाति
So, Shrekaji, when she is asking that question, Mekala, Etesha, Vishyanam, Shravane, Bhavatya, I think even without Bhavatya also it makes sense, right? Etesha, Vishyanam, Shravane, Ka Labaha?
Satyam, Satyam.
Right? Okay, just she is what you call Sambodhin, I mean like she is addressing here, right? Bhavatya.
Yes, it's the writer is, the author of the book is actually making sure that you know, I cover all those topics.
So between Bhavati and Bhavatya, so you and sort of, I'm not translating, but more like you and you are like, what is the,
what you get out of
what
it,
that's
what
she's asking.
What is your benefit, what is
exactly.
Atra Pashan, Uttamam, Sahayavartahatra. Pashatu Bhavati iti padasya, Shashti ekavachanamasi Bhavatyah, yatha puram krutam, Bhavatyah namakim. भवतः नाम किम् ओके किन्तु त्वम् इदमेव सम्भाषणम् यदि त्वम् इति उपयुजस्ति तर्हि पश्यतु त्वं कुत्र गच्छसि एवमति तव लाभः कः त्वं पदस्य षष्टि एकवचनं भवति तव अनन्तरं पश्यामः किन्तु केवलं वदामि अत्र तावदेव एतेषां विषयाणां श्रवणेन तव कः लाभः यदि त्वम् इति उपयुज्य सम्भाषणं यदि क्रियते अत्र तव लाभः कः भवति अस्ति चेत् भवत्याः कः लाभः उदाहरणाय अत्र पश्यतु अस्मिन् स्थाने एव वी केन् आल्सो से पुण्यप्रियायाः कः लाभः रामस्य कः लाभः सीतायाः कः लाभः शिवस्य कः लाभः पार्वत्याः कः लाभः
इट्स् अ पोसेसिव वर्जन नॉट अ प्लूरल वर्जन देयर
वेरी गुड वेरी वेरी गुड ऑब्जर्वेशन यस दैट इज जस्ट वेयर आई एम गोइंग टू गो यस पश्यन्तु इट्स वेरी वेरी इंपॉर्टेंट यू अंडरस्टैंड दिस नदी और लेट्स से पार्वती लेट्स स्टार्ट विद सिंपल पार्वती बहुवचन किम अस्ति पार्वत्यः किन्तु दीर्घमस्ति चेत् तत् पश्यतु अत्र दीर्घमस्ति वन् अदर् एक्स्ट्रा मात्रा देव इफ् यु गेट् दर् इट् बिकम् षष्टि एकवचनं पार्वतीपदस्य बहुवचनमस्ति पार्वत्यः बट् इफ् यु से पार्वत्याः It becomes Shashti Ekavachanam. This is Prathama Bahuvachanam. Atra Shashti Ekavachanam.
Okay.
Parvatyaha Patihi Shiva.
Yeah.
Parvatyaha Patihi Shiva. Kintu Parvatyaha Santi. Asti Padasya Bahuvachanam Santi Kila. Parvatyaha Santi. Nadyaha Nama Ganga. Nadyaha Nama Ganga. किन्तु नद्यः प्रवहन्ति नद्यः प्रवहन्ति नद्याः नाम गङ्गा इट् मेक्स् अ वेरि बिग् बिग् डिफ़रेन्स् कृपया अवगच्छन्तु सर्वे स्पष्टं वा
स्पष्टं
हा उत्तमं
सारी शेखर् ऐ एम् नाट् स्टिल् क्लियर् the difference between that nadiya and first one you said nadiya brahmati or something right river is flowing
nadiya nama ganga नद्यः प्रवहन्ति. कोऽपि विवृणोतु कृपया. Can anyone explain the difference between these two?
Yeah, I'll try. So, nadyah means shashti vibhakti, which means
reverse name.
Oh, okay.
Yeah.
Oh, reverse name.
Name, yes,
okay.
Exactly.
Fine.
Reverse
okay.
name is
yeah,
Ganga.
The river is flowing. Okay.
Yeah, the river is flowing and reverse name is Ganga.
Ah, got it. Okay, thanks. Yeah, got it.
And nadyah means many rivers.
Rivers are flowing, right? Okay, correct.
Satya.
Yeah. Okay.
Spashtam?
Yeah, spashtam.
Okay. Anantaram, Murali Mahadeya, Patitam Shaknatva.
Nikala, Tatra ke Agachanti. आगच्छन्ति भोः केवलः वृद्धाः आगच्छन्ति किम् पुण्यप्रिया न सखी तत्र तरुणाः प्रौढाः आधुनिकाः पारम्परिकाः इति सर्वविद्याः
सर्वविधाः तिष्ठतु कृपया. अत्र पुनः प्रश्नः कृतः मेखला तत्र के आगच्छन्ति भो इति. केवलाः वृद्धाः अथवा अन्येपि केवलाः नाम प्रवचनमस्ति किल वेदान्तप्रवचनं नाम वृद्धाः एव भवन्ति इति अस्माकं भ्रमः अस्तु. इत्यस्मात् सः पृच्छति केवलाः वृद्धाः एव आगच्छन्ति अथवा अपरे जनाः अपि आगच्छन्ति इति. पुण्यप्रिया किं वदति? न सखी. न सखी नाम न पुण्यप्रिये सम्बोधनं पुनः अत्रापि. तत्र तरुणाः तरुणः नाम युवकाः इति अर्थः. यस् यङ्ग्स्टर्स्. प्रौढाः प्रौढाः आधुनिकाः नाम अस्माकं अस्मदीयाः मोडर्न् पीपल् इति अर्थः. आधुनिकाः पारम्परिकाः ते सर्वविधाः जनाः न तु केवलं प्रौढाः तत्र भवन्ति न तु केवलं तरुणाः तत्र भवन्ति सर्वविधाः जनाः आगच्छन्ति.
All kinds of people will come. Okay.
Shikaji, I have one question. On the previous sentence, kevalah vriddah. So does it mean only the male version of, or generally for old people can we say vriddah, it includes
पुंलिङ्गे वृद्धः स्त्रीलिङ्गे वृद्धाः. तत्र पश्यतु बहुवचने वृद्धः पदस्य बहुवचनं किं?
वृद्धाः.
वृद्धा पदस्य बहुवचनं किम्?
अपि वृद्धाः.
दैजुगो पश्यन्
बिफोर् तत्र के आगच्छति I don't understand. So, Adanchati is the Bahuvachanam, but why is it, I don't understand why you would use Agachanti there.
Why wouldn't I use Agachanti?
Or I didn't understand that sentence, I think, then. Tatra, okay.
Atra Pashyato, Aham Asmi Atra, Aham Asmi, Aham Bhavatah Gruham Pati Agachami. Bhavatah Patni Pruchati. कः आगच्छति इति. कः आगच्छति? भवान् वदति शेखरः आगच्छति. एकवचनमस्ति कः आगच्छति. यथा सः आगच्छति. कः? शेखरः आगच्छति. यदि अहं मुरलि रवि वयं सर्वेपि आगच्छामः तर्हि प्रश्नः भवति के आगच्छन्ति. एकवचनं नास्ति अत्र बहुवचनमस्ति. कः पदस्य बहुवचनं के अस्ति. के आगच्छन्ति इति प्रश्नः.
ओके. That's what I was missing. Yeah, that's what I was missing. K.
कः पदस्य बहुवचनं के एकनिमिषं यथा सः ते कः के अस्तु सः ते पुंलिङ्गे सः प्रश्ने कः सः कः सः रविः सः कः सः नटराजः एवं रीत्या अस्तु तौ द्विवचने तौ किल तौ कौ प्रश्नः भवति तौ कौ तौ कौ तौ नटराजः रविः च ते के ते नटराजः रविः शङ्करः च पुंलिङ्गे एतत् सर्वं के क्लियर् सः तौ ते सिमिलर् इह कः कौ के
शेखर्जि वै इसन्ट् इट् आगच्छन्ति किमाने Why is it Kim at the end of the question? I mean, Kevalaha, Vriddaha, Agachanti, Kim. Why is it Kim? Kim is for Ekvachanam when we have to ask the question.
Ah, wonderful question. Wonderful question. So, Kim, Satyam. Kintu Asmin Sandarbhe, Kim is more like a question. That's it. It doesn't, this is an Avyayam. This is gender independent.
Yeah, but then shouldn't
it has both meanings. It has both meanings. Okay, you need to look at the context. When I say Kim, just think of this Kim as a question mark. That's it. In the past, we didn't have question mark, right? So, think of that Kim as a question mark. That's it. Kevalaha vriddaha agachanti. When I'm reading this, right? I mean, when I say the sentence, you know, I have the tone to my sentence. But when I'm reading it, you don't have the tone. So we just use Kim there as a question. That's it. Kim is really a question.
Okay.
Think of Kim as a question mark here. But you are correct. Kim it's Pustakam.
Like, it's like
that is also Hindi, there.
In Hindi, you would say, Kevala Vridha Aate Hai versus Aate Hai Kya?
No, shouldn't it be instead of Kim, since it's Vridha, Kani or K.
No, Kani here it, no. I understand your question. Kim here just means a question. That's it.
Okay.
But you are correct. Kim, there is K Kani. That is still there. Kim Pustakam. K Kim Dwaram. That is still there. But that Kim is different. This Kim is just a question. That's it.
Okay.
If you read the sentence, you'll pretty much understand.
If I read the question, if I just read the sentence, it's making sense. When we go into the technicalities of it, then these questions
are that is true. Yeah. I mean, if you look at each and every word, then that is becomes a problem.
Yeah, if you try to analyze and...
Exactly.
And also, Shekharji, just one. For Vriddaha, it does not necessarily mean male, old people. It could be both, like old people. Because we've learned it's not...
Yes.
It's gender discrimination.
Yes.
Yes. In Bahuvachanam, you could... that's how it is, yes. Even if you have boys and girls, like male and female there, you take the male.
Priorities.
Yes. Yeah. Yes. Okay. Yeah.
Shravanati artah listening or hearing, is it?
Satyam. Shravanam.
Shravanam. So the verb form is Shravanati, is it? Or Shravanati?
No. These are all noun forms here.
Okay.
Agachanti. You have to see. These are the only verb forms you have. Agachanti. Anubhavami. These are the only kriyapadas.
Okay.
Everything
Bahuvachane,
else?
Lingabhedam nasti.
Kimiti?
Bahuvachane lingabhedam nasti.
Kutra bhedaha?
Bahuvachane vriddhaha.
Asti eva. Kimartham nasti nama vriddhaha vriddhaha kila?
Okay.
Asti. Anantaram, Padmajaji. पठति वा
पुण्यप्रिया आम् इस् दट् द लैन् ऐ नीड् टु स्टार्ट् आन्
न इतः
पुण्यप्रिया
ओके ओके सारि मेखला अहमपि ज्ञानं शान्तिं च इच्छामि अहम् आगच्छामि किम् पुण्यप्रिया आम् भवती अवश्यम् आगन्तु शक्नोति भवती प्रतिदिनं सायं मम गृहम् आगच्छति चेत् अनन्तरम् आवां वेदान्तमन्दिरं गच्छावः
अस्तु पश्यत चेत् नाम इति अर्थः भवती प्रतिदिनं सायं मम गृहम् आगच्छति चेत् अनन्तरं
चेत्
अनन्तरम् आवाम् आवां नाम कौ अथवा के अत्र मेखला पुण्यप्रिया च आवां मन्दिरं गच्छावः अस्तु अत्र पश्यन्तु बहूनि पदानि सन्ति अत्र अभ्यासः कथं करणीयः अस्तु अभ्यासः कथं करणीयः इति प्रश्नः पश्यन्तु उदाहरणाय प्रतिदिनं सायं भवती कुत्र गच्छति प्रतिदिनं सायं ते कुत्र गच्छन्ति प्रतिदिनं सायं सः कुत्र गच्छति अथवा प्रतिदिनं सायं त्वं कुत्र गच्छसि प्रतिदिनं सायं यूयं कुत्र गच्छथ ओके ट्रै चेञ्जिङ्ग् दि एकवचनं चेञ्जिङ्ग् द वचनं ओके यु विल् गेट् अ फील् आफ् यु नो हौ टु आक्चुलि से सेण्टेन्सस् प्रतिदिनं सायन्त्रं कुत्र गच्छति अहं प्रतिदिनं वेदान्तभवनं गच्छामि अहं प्रतिदिनं सायं कार्यालयं गच्छामि अथवा मन्दिरं गच्छामि अथवा उद्यानं गच्छामि उद्याने किं भवति उद्याने किं भवति तत्र उद्याने बालाः क्रीडन्ति यु रैट् योर् ओन् पाराग्राफ् इट् इस् क्लियर् तत्र उद्याने बालाः क्रीडन्ति बालाः किं क्रीडन्ति किमपि क्रीडन्ति भवतु सो एकः धावति लैक् किनो वि सा इन् दादौ अदर् डे एकः धावति अपरः अनुधावति सो अन् सो फोर् अस्तु अत्र श्रवणेन भवत्याः कः लाभः अस्तु यु डोण्ट् नो हौ टु यूस् श्रवण श्रवणेन फार् एक्साम्पल् यु नो यु डोण्ट् नो हौ टु यूस् श्रवणेन हियर् सो जस्ट् इग्नोर् दट् वर्ड्स् कः लाभः किमर्थं गच्छति भवान् गच्छति किमर्थं गच्छति अथवा त्वं गच्छसि किमर्थं गच्छसि अहं शान्तिम् अनुभवामि तत्र के के आगच्छन्ति सर्वे बालाः आगच्छन्ति बालाः क्रीडन्ति प्रौढाः उपविशन्ति किमपि वदन्तु ओके चेञ्ज् द वर्ब् सच् ऐ मीन् ट्रै टु यूस् द सेम् सम्भाषणं दट् यु हेव् हियर् इन् डिफ्रेण्ट् वे दिस् इस् लैक् अ फ्रेम्वर्क् फार् यु ट्रै टु यूस् दिस् फ्रेम्वर्क् एण्ड् रैट् युर् ओन् सेण्टेन्सस् or say your own sentences. Is this clear?
So the aham, quick question, aham api, so is that aham api, is that how I should think about it?
Yes, not aham plus api, aham api, yes, satyam.
Okay.
Aham api icchami, aham kim icchami, jnanam shantim cha icchami. Cha means end, like we discussed before, chakara means end. Aham jnanam shantim cha icchami. अहम् आगच्छामि किम् इति प्रश्नः भवती अवश्यम् आगन्तुं शक्नोति भवती प्रतिदिनं सायं मम गृहम् आगच्छति चेत् अनन्तरम् आवां वेदान्तमन्दिरं गच्छावः स्पष्टमस्ति वा someone asked me a question. I will not be able to participate in the next class. I don't recall who it was.
No, I was trying to ask.
Okay.
I didn't feel confident or something I said, yeah.
So to express those forms, you know, you would use agantum kind of thing. Agantum means to go.
And shaknoti is...
ability, yes.
Can, right? Shaknoti means I can come.
Yes, I can, yes. I can go iti artha hatra. I can come.
Okay. Okay, can you use it in some other verb forms also, just for my understanding? Shekharji, agantum, here it's for coming, right? I can come. So I can go means?
Okay, aham karyam kartum ichhami. Aham karyalayam gantum ichhami. Aham bhojanam khaditum ichhami. We will discuss all this later, but you know, just to get a feel of, you know, what your...
Okay, understand. Okay.
Did you understand my sentences? Aham khaditum ichhami.
I like to eat, right? Okay.
These are called tumun forms. We'll get there later.
Sure. Okay.
Spashtam va? Katha spashta kila?
Yeah.
Spashtam.
Atra pashyantu. Sarvani padani atra. Asyam kathayam sarvani padani vartamana kalam suchayanti. Vartamana kalam nama?
Future tense.
Kim bho? Vartamana kalam.
Present.
Present, sorry. Yeah.
Thank you. Present tense. Vartamana kalam suchayanti. Agachati, gachati, ichami, anubhavami, sarvani padani, वर्तमानकालं सूचयन्ति. वर्तमानकाले रूपं कथं भवन्ति एकवारं वयं पूर्वं पठितवन्तः एव, पुनः एकवारं पठामः. रङ्गाजी, कृपया पठतु एकवारम्.
आचार्यः लिखति. डौन्वर्ड्स्
डज़न्ट् मेटर्, वाट् एवर् यू केन् सी.
ओके, यदा पश्यति पिप्पलादः उपदिशति, भक्तः नमति, युवती नृत्यति. दिस् वन् ऐ हव् अ रियलि डिफिकल्ट् टु ट्विस्ट् मै नृत्यति नृत्यति युवती नृत्यति अग्निः ज्वलति.
अत्र इदं मा साधना अस्तु. अम्बाजि, एतानि पदानि पठतु कृपया.
नमति नमतः नमन्ति, नमसि नमतः नमत, नमामि नमावः नमामः.
अस्तु, इदमेव. अधुना मुरलीजी, यु वर् नाट् हियर् लास्ट् वीक्, सो अन्लेस् यु वाण्ट् ट्रै, केन् यू जस्ट् यूस् सः एण्ड् आल् द त्री फार्म्स्, एकवचनं बहुवचनं, एकवचनं द्विवचनं बहुवचनं, एण्ड् से द सेण्टेन्सस् फार् द फस्ट् वन् एण्ड् आल्सो फार् मध्यम पुरुष.
ओके, सः नमति, तौ नमतः, ते नमन्ति, सा नमासि, त्वं नमासि,
नमसि,
युवां नमतः, यूयं नमत, अहं नमामि, आवां नमावः, वयं नमामः.
वण्डर्फुल्, थैंक यू. अत्र कृपया अवधानं दीयताम्. अत्र पश्यतु, अत्र न मामि दीर्घ आकारः, न मावः, न मामः दीर्घ आकारः अत्रापि, अन्यत्र सर्वत्रापि ह्रस्व आकारः. आल् हियर् ह्रस्व आकारः. नमति नमतः नमन्ति, नमसि नमतः नमथ. ओन्लि हियर् उत्तमपुरुषे एव केवलम् अत्र एव केवलं दीर्घ आकारः भवति. न मामि, गच्छावः, न मामः, एवं रीत्या. अस्तु, स्पष्टमस्ति वा? अस्तु, अधुना शीतल्जि.
आं महोदय.
भवती इदं स्मरति पदस्य वदतु कृपया.
एकनिमिषम् रामः स्मरति रामौ स्मरतः रामः स्मरन्ति त्वं स्मरसि यूयं स्मरतः युवां स्मरतः यूयं स्मरत अहं स्मरामि अहं वय आवां स्मरावः वयं स्मरामः
वण्डर्फुल् धन्यवादः धन्यवादः
धन्यवादः
अधुना रविजि यु वान् ट्रै That was a long pause. I presume no. Okay.
I can try, Nishankar.
Okay, go ahead. Yeah, thank you.
Saha hanti, tau hataha, te dananti.
Gananti.
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 Gananti. Okay. Tvam... Hamsi,
Tvam Hamsi, Tvam Hamsi,
Yuvam Hataha, Yuyam Hata, Aham Hanmi, Avam Hanvaha, Vayam Hanmaha.
Dhanyavadha, Avam. Atta Pashatu Yatha Purvam Uktam, Ahatya Dasha Prabhedaha Santi, 10 varieties, this is one of them, okay? If you want to remember, great. If you don't want to, that's fine too. Instead of Hanti, you can say Marayati, but simpler form. Okay?
Shikaji, I'm sorry, I'm on mute.
What is its meaning?
Hanti. Ramaha Ravanam Hanti.
Oh, okay. Killing. Okay. But it has...
Atra Pashyantu. Atra Nakara Hasi, like Gacchanti Hanti. Doesn't mean that this is in Bahuvachan. This is in Ekavachan only.
Yeah. Okay. And even every word is like different.
Yes. Just, you know, a different flavor. I mean, if you want to memorize it, go for it. Otherwise, you can use a much simpler form. Say, Marayati.
Marayati. Yeah, that's easier.
Whatever works. Okay? But just remember that, you know, just because seeing Hanti, you know, you shouldn't think this is a plural.
Yes.
Ekavachana form, that's it. As long as you understand that, it doesn't matter.
Shekhaji, I'm sorry. I think I'm on mute at the time, you know.
Okay.
When you call me, I'm trying to call. So you want to try the next one?
Yeah, Shrunati, Satyam. Vadato.
Shrunati, okay.
Shrunoti.
Shrunoti, yeah. Saha, Shrunoti. Sau, Shrunutaha. Ke, Shrunvanti.
Okay.
And then Tvam, Shrunoshi. Yuvam, Shrunutaha. Yuyam Shunuta. Aham Shunomi. Avam Shunvaha.
Avam
Shunvaha. Vayam Shunamaha. Shunumaha.
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 Shekharji, just one more question. They are like this. Shunosi, if there is a O sound, it becomes she, is it? Not C anymore?
Yes.
Okay.
Not every time, but you'll understand it soon.
Okay.
I don't want to give you all the exceptions just yet, but okay. you'll find it out.
Okay. Because earlier in the other paragraph also, Karoshi,
Yes. Okay, you'll find it out very soon, don't worry. Okay. Kreenati. Rangaji, do you want to try? Or is there anyone else that hasn't tried so far?
Anju.
Okay. Sorry. Yeah, go ahead.
Okay. Saha krinate. Te krinitaha. Te krinante.
Really? Saha krinati. Why is it te?
Se. Tau.
Tau?
Tau krinitaha te krinante.
Hey, you were fighting for women's rights before. Why are you using saha? Use sa.
I I know, somehow. Okay. We were fighting those dogs, right?
No, 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 I'm not fighting for anybody. I'm just trying, finding ways to memorize this. Okay. Tvam krinase, yuvam krinithaha, yuyam krinith.
Yuyam krinitha.
Krinitha. Aham krinami. Avam krinivaha.
Avam, avam.
Avam krinivaha. Vayam krinimaha.
Good, good. Anantaram, anyone else? Okay, I'll go to Nandini ji again.
The bhidhatu?
Yeah, satyam. This is to... Oh, man. Okay, this is to...
युवाम युवाम बिभीतः और युवाम बिभीतः युयं बिभीतः और युयं बिभीतः अहम् बिभेमि आवाम बिभीवः और बिभीवः वयम् बिभीमः और बिभीमः
wonderful so that is another category. So hanti is a different kind, and similarly bibheti is in a different bucket so far. Okay, you know shunoshi, what was the other one that we said? See, chinoshi, chinoti, like shrunoti here. Shrunoti, shrunoshi, shrunomi. Similarly you have chinoti, chinoti nama
challenge.
No.
Choose.
Elect.
Yeah.
Okay. Chinoti means, it has a lot of meanings actually. Choose is one way to gather, to collect. Itiyapi artahas tatra. Okay. And, okay. Who just went on Swari?
Nikhil, can we use karma here?
Prashna kaha?
Can we use karma here? Karma?
Yes. Yes, nischayana, yes.
Okay. Rama Sitam Smarati.
Nischayana. Satyam. Shakyate. Grunhati Padasya. Kavadati Kausalya ji, bhavati karotu. Grunhati Padasya.
अस्तु महोदय सः गृह्णाति असा गृह्णाति ते गृह्णीतः ताः गृह्णन्ति त्वं गृह्णासि युवां गृह्णीतः यूयं गृह्णीत अहं गृह्णामि आवां गृह्णीवः वयं गृह्णीमः
Wonderful. Rangaji, you want to try this one?
Yes. Taha Chinoti. Sau.
Tau.
Tau, sorry. Tau Chinataha. No, Chinataha.
Chinu.
Chinutaha. Tau Chinutaha. Te Chinvanti. Tvam Chinoshi Uvam Chinutaha Yuyam Chinutha Chinutha and Aham Chinomi Avam Chinvaha or Avam Chinuvaha Vayam Chinmaha आर् अहम् अन् वयं चिनुमः.
धन्यवादः.
धन्यवादः.
Okay, this is, we did all this before as well. I'm just gonna okay, so Sanu doesn't like to go down.
Aham, okay. Ekam prashna asmi.
Ekaha prashna asti.
Ekaha prashna asti. Okay. So in the previous the table, we also can use the I am.
Satyam, sarvatrapi. सर्वत्रापि सत्यम् अहम् अयं नमति इमौ नमतः इमे नमन्ति एषः नमति सेम् थिङ्ग्
सो एनीथिङ्ग् वर्ड्स् विल् नॉट चेंज द क्रिया
नॉट चेंज ओके नो अहम् फर् उत्तमपुरुष त्वं फर् मध्यमपुरुष एव्रीथिङ्ग् एल्स् फाल्स् इन्टु प्रथमपुरुष बै डिफाल्ट् ओके
यस् थैंक यू
ओके So here, Sikshakaha Vadati, you know, we did this over and over again, so I'm not going to do this now. So, Atra Pashyantu Krupaya Adhi. Bhavan Padasya Eka Vachanam, Bhavan Idi Eka Vachanam, Bhavanto Dvivachanam, Bhavantaha Bahu Vachanam.
Bahu Vachanam.
Saha Tau Te, Eshaha Etau Ete. Astu, Yathapuru Nataraj Mahadaya. भवता पृष्टं किल पूर्वम् अत्र पश्यतु सो लेट् मी डू द फस्ट् वन् विल् सी हौ दिस् गोस् ओके भवान् अस्ति भवन्तौ स्तः भवन्तः सन्ति सः अस्ति तौ स्तः ते सन्ति ओके यु केन् यूस् एनी आफ् दीस् वित् फस्ट् पर्सन् वित् प्रथमपुरुष Because it's not Tvam or Aham. All these will only go with Pratama Purusha. Only when you have Tvam, you'll have Madhyama Purusha. Only when you use Aham, you'll use Uttama Purusha. For every other word, it's Pratama Purusha. Is this clear?
Yeah.
Okay, so this is already uploaded. I don't know how many of you have actually seen, but I have already uploaded this yesterday. As in my yesterday.
Yeah, we got it. Yeah, shared it.
Okay. Okay, so you can do this later. Okay, so I want us to read another story today. So hang on 1 minute, please. So far, this is clear, right?
Yeah.
No, that was a very sad, yeah.
No, it is.
No, 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 I think it is clear. But what happens is, when you're saying it looks clear, but when you unshave it, everything is gone.
Okay, we'll see.
Yeah, at least the recording is there. So.
I know, that is a good thing, only recording.
It's easy when it's in front of us.
Yeah.
Out of sight, out of mind.
Yeah. Okay. Atra patantu krupaya. Adho eva bhavato. Atra rajivaha anandaha eva asti vata. Asto. Pathe rajivaha iti rangamohadaya bhavan bhavato. Anandaha iti anandaha va? Kahasya apraha? Anandaha. मुरळी महोदय भवान् आनन्दः रङ्गमहोदय राजीवः मुरळी महोदय आनन्दः पठतां कृपया
I think you muted all right no
I didn't mute
people just
Asto. I heard one voice. Where is the other? Where is Muraliji?
Yeah, no, I heard you. Yeah, okay. I'm here now. Yeah, no,
Ranga Mahadev, where are you?
Asmi.
Ah, sorry. Okay, yeah, there goes. Yeah, start.
So I was waiting for the first person.
Okay. Anandara. Tava nama kim?
Mama nama Rajivaha So you want to put my name there or?
No, that's fine. Just
okay. Mama nama Rajivaha, tava Rama, tava nama kim?
Anandaha, mama nama Anandaha. I think you should go next.
Tvam kutra gachasi?
Aham aapanam gachami.
Aapanam?
Aapanam gachami. Esha mama anujaha santoshaha.
Yuvam patataha him?
Aam avam patavaha. Tvam kutra gachasi?
अहमपि आपणमेव गच्छामि.
सर्वे मिलित्वा गच्छामः.
आपणिकः अहं भवामि. यूयं किम् इच्छत?
वयं पुस्तकानि इच्छामः.
एतानि पुस्तकानि पश्यत. ओके, you understood the flow, right? Sambhashanam?
Yes. Aam.
Okay. Atra pashyatu. Tava nama kim? Tava nama kim? Yatha bhavataha nama, bhavatyaha nama. Madhyama purushe tava nama kim? Tvam gachasi. Kutra gachasi? Aapanam. Eshaha mama. Eshaha mama anujaha. Kasya anujaha santoshaha? आनन्दस्य अनुजः सन्तोषः. आनन्दः वदति किल इदं वाक्यम्. एषः मम नाम मयि किल. आनन्दः वदति, अतः सन्तोषः आनन्दस्य अनुजः अस्ति. युवां पठतः. आवां
पठतः.
आपणः, सेफ् वे आपणः. ओ, प्रायः तत्र अट्लाण्ट् मध्ये सेफ् वे आपणाः न भवन्ति. अस्तु, कास्को आपणः. स्पष्टं वा इयं कथा? अपि कथा नाम सम्भाषणं भवतु.
शेखर्जी, नथिङ्ग् रिलेटेड् टु दिस् स्टोरि, वाट् इस् द मीनिङ्ग् आफ़् पठाय? पठ आय,
वेर् इस् दट्?
It's not in this book. I was reading
Pathaya.
Pathai. Yeah, Trilok Pathai.
Pathai?
Pathu Ayo. Yo, at the end.
Pathaya. Yeah. Okay. Not Pathai. It is Pathaya.
Yeah, yes.
Pathaya.
What does this mean?
This is Yatha Ramaya. It probably is not pathaya, pathanaya maybe, or pathaya. Okay? If pathaya just doesn't make any sense. It has to be pathanaya or pathanaya something. But anyways, regardless of what that is, the word is in Chaturthi Vibhakti. For something. You probably didn't seem very convinced with my answer.
Pataha
is also there actually, you know. Pataha, pataya, yeah, reading. Pataha means to, read, for reading. Iti artaha. Dhavanaya, for running. So on and so forth.
Okay.
Whatever the reason is, you know, you express the reason in the Chaturthi Vibhakti there.
Mm.
And that question... sarve militva gachamaha means we will all go together. That's what it
wonderful
means.
Wonderful. Yes. Yes.
Can we go together? Yeah.
Okay. Yes. Clear?
Yeah.
Kata spashta asti va? Adhuna prashnaha santi chet pruchyantu krupaya. Prashnaha vana santi va? Uttam. Okay, if you don't have any, I'll make you do some.
Yeah, no questions so far.
Mm-hmm. Okay. Then I'll make it. Hang on 1 minute.
Shikaji, you had also uploaded another PDF.
Yes, that's where I'm going now.
Okay. No, that looks easier. So
that's exactly where I'm going now.
Everybody wants all the material, but I don't know.
We need time. Yes. We need time to digest this. It takes time.
Oh. Okay. You're able to see my screen now, right?
Yes.
So, that's very... Conversion. I said, so this is 21 pages, and please don't ask me if you're supposed to do 21 pages. If you want practice, do it.
If you
don't want it, don't do it. Okay? There's no question here. Okay. Okay. Okay.
What is that empty page meant? First page.
That, so usually it's the exceptions, you know, I usually try to do that there.
Oh, okay.
So there's like a definition or something that I want to remember, right?
Okay.
I tend to actually create that page, but you don't have any definitions. But if you like, for instance, if you want to like remember a word like Hanti, right? That's the first thing that you see there.
Hmm.
That is my kind. You don't have to do it, but you know, it was.
No, that's good. Good.
Okay. Atra sarve drashtum shaknuvanti iti manye. Mm-hmm. Did I zoom enough?
Yes.
Yeah.
Okay. Puraito vakyane. Okay. So by default, Anjuji, mm-hmm. you do the first two. Okay.
Okay.
Rangaji, you go next. Okay. We'll start like that. Okay. Go.
Etau chhatrau pathanti.
I think it is
pathataha. Etau chhatrau. Why is there a confusion? Chhatra dvivachanam kila? Etau chhatrau.
Sorry. Yes. Correct. Etau chhatrau pathataha. Bhavantau uttishthataha.
Tishtato. Rangaji, next.
Yuvam chhatrau taha.
Alpa prana or mahaprana?
Mahaprana.
Wonderful.
Te kanye. Gachanti. Gachanti.
Te kanye gachanti.
Gachanti. Yeah.
Anyone else?
Yeah. Alpa prana.
It's the third one.
It's the third one. Yes, Satyam. Yes. Kanya iti akaranta strilinga padam. Dvivachanam kanye. Sita, sita, lata, late, kanya, kanye. Sa padasya dvivachanam ste. Te kanye gachataha. Iti vakyam.
Okay.
Shikaji, can I ask a very basic question? You just mentioned about something, two words. Alpa, something and something. Can you please say it again?
Mahaprana, alpa prana. Alpa prana means... Okay, I don't want to go to the technicalities, but okay. Ta is alpa prana. You say just say ta. But the second tha is mahaprana. Tha. Similarly, ka is alpa prana. Kha, mahaprana. Cha,
okay.
Alpa prana. Cha, mahaprana.
Got it. So
similarly for the next two letters as well. Ta,
okay.
Da, dha. So on.
Got it. Mahaprana. That's good enough. Thank you.
So in this example, the second one is Mahaprana, right? Third one.
Where is the second one? The fourth sentence.
We are talking about third sentence. Chhatrau.
Staha. Mahaprana. Third one. Yes.
Third one. Okay.
Okay, next Padmajaji, 5 and 6.
Sorry, Shikhaji, Te kanye, can you just repeat, please? Why is it gachataha?
अत्र पश्यन्तु कन्या इति श्रीलिङ्गपदं किल वदतु चिन्ता नास्ति
सो कन्या इस् फीमेल् वर्ड् द्विवचनम् इस् कन्ये एण्ड् दट्स् वै वि हेव् टु यूस् यूस् द थर्ड् आप्शन् विच् इस् गच्छतः
कन्या इति पदम् आकारान्तस्त्रीलिङ्गपदमस्ति एकवचनं कन्या कन्या द्विवचनं कन्ये बहुवचनं कन्याः कन्या स्त्रीलिङ्गपदमस्ति इत्यस्मात् पूर्वं प्रणौन् यत् अस्ति सर्वनामपदं तदपि स्त्रीलिङ्गे एव भवति सा एकवचनं द्विवचने ते बहुवचने ताः किल द्विवचने ते अस्ति ते कन्ये गच्छतः क्लियर् मेक् शुर् दट् इट् इस् क्लियर् इफ् यु डोण्ट् अण्डर्स्टाण्ड् ऐ एम् विलिङ्ग् टु एक्स्प्लेन् इट् अगेन्
श्योर् थेङ्क् यु
ओके ग्रेट् पद्मजाति गो हेड्
फैव् वानराः सो दट् वुड् बि खादन्ति
वण्डर्फुल्
वयं मनुष्याः सो दट् वुड् बि थर्ड् वन् वदथ
हौ हौ वयं रैट् वयं वयं नाट् यूयं वयम्
उत्तमपुरुष
ओ वयं
उत्तमपुरुष बहुवचनं
मनुष्याः वदावः फस्ट्
वदामः न वदामः वदामः
ओ सारि टुडेस् दट् सिंक इन् येट्
ओके दट्स् फैन् दट्स् फैन् वयं मनुष्याः वदामः
Okay.
Worst case, you know, this is how I think you should think. Okay? Manushyaha is in Bahuvachanam. Okay? Manushyaha Bahuvachanam asti. Ichyasmad Vadasi Nabhavet. Vadataha is also not an option. Okay? Vadavaha, we know it's in Dvivachanam, so that's not an option. So, narrowed down to Vadamaha. Did that make sense? Like, back in the day when we had math exam, right, we'll try to eliminate all the other answers. That we are not sure of.
Shekhani, how about closing eyes and then putting your finger on one of the words?
This is what I mean. Sure, sure. Okay. Ambaji, can you do the next two?
Etau gajau chalatah. एते बालिके आगच्छतः
वण्डर्फुल् एते बालिके आगच्छतः अनन्तरं मुरळीजी कञ्जु 9 and 10
वयं मित्राणि मिलामः यूयं शिष्याः पृच्छतः द फस्ट् वन्
थेङ्क् यु अण्ड् रविजी 11 and 12
आवम् अध्यापकौ पठयामः पठयतः पठयावः
पाठयावः
सारि पाठयावः थर्ड् वन् 12th वन् ते छात्रे हसति
न
ते छात्रे हसतः
सेकेण्ड् आर् थर्ड् वन्
हसतः हसतः हसतः
वण्डर्फुल् वण्डर्फुल् या या ते ते रैट् ते
थर्ड् वन्
नौ नन्दिनीजि
तौ मयूरौ नृत्यतः ताः वृद्धाः Tadayanti.
Wonderful. Taha Vrittaha Tadayanti. Wonderful. Natarajanji,
can I write? Next two?
No, you'll go next. 1 minute. Natarajanji, can you do next two?
Okay. Yeah. Yete Nayau. Yete Nayau.
Naryau, not Nayau. Naryau.
Yete Naryau. Hasataha.
Wonderful.
Is it yete naryo or yetau naryo?
No, right? sa, e, te, esha, e, te.
Oh, okay. Okay. Te Rajakumaraha. Rajakumaraha. Okay. Agachanti.
Te Rajakumaraha Agachanti. Wonderful. Ashidaji, can you go next?
Te phale. पततः फले पततः तानि पुष्पाणि विकसन्ति.
Wonderful. Tani Pushpani Vikasanti. Is there Shankar?
Shekhaji, 17th. Te Phale Patataha. Which one? Second one or first one?
First one.
Okay.
Divachan.
Shankarji, I think you are the only one that hasn't done it.
Yeah, I can go. Whenever you are.
Just give me 1 minute, I'll answer that question, please. 19 and 20, can you do that?
Yeah. Ethani Vejanani. So Ethani is Bahuvachanam Pratama Purushaha. So Taha. So if Bahuvachanam Pratama Purushaha. So Inti. So Brahmanti.
Brahmanti, wonderful.
Bhavatyaha Gati. So Bhavatyaha is a Bahuvachanam. Bahuvachanam Pratama Purushaha Pashyanti.
Wonderful. Pashyanti. So, any questions now? Or is it clear?
Shekharji, just Gati.
Gati? Gati means what?
Flock. A pot or something.
But
no,
gati,
no, not flock. So, gati is flock.
Yeah, Gati is clock. So Gati. Gatiyau.
That's it.
So why is it then Gati?
I didn't understand your question, sorry.
Shouldn't it be Gatiyaha?
It is karma.
Okay. Yes, that's true. Okay. If I say Bhavatyaha Ghatim, if I say Bhavatyaha Ghatiyaha, it means, you know, I'm talking about the Ghatis. I'm saying you clocks.
Okay.
But what does it say here? Bhavatyaha Ghati
Pashyati.
This is
but
karma.
But is it Gati or Gati?
Ghati. I mean, Ghati only. Ghati. It's Ghatim actually here. You have a anuswara there. Ghatim.
Correct.
So all the karma padas will get anuswara at the end. We'll talk about that next class.
Okay. Okay. Thank you.
We everyone knows the basic Shashti and Saptami, right? So I want to do karma padam first, because without that you can't read stories, because if you see up until now, right, it's just been Mayuraha Nutyanti, Balakaha Pashyanti. But, you know, what are they seeing? What are they carrying? You know, we don't have that object yet in the sentences. I'm hoping to actually address it the next time, but we'll see.
What is Tadayati mean?
Tadayati anyone?
Looking at it.
No. Tadayati means sitting.
Hitting.
But you said patataha, right? That is correct.
It was correct because I go from phalam.
Oh, okay. But you can think whatever you want to. I'm only looking for the answer. So you said tiye phale patatah. That is correct for me.
I'm not telling you. I'm just confirming for myself.
Yeah, yes, yes, yes. Tatra te iti nastiklinge vasti. Satyam.
Sahate tava.
No, 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 no.
I told that.
Oh, no, no, no. I thought you were trying to eliminate that. That's how I actually read it when you said that. That's fine.
Satya dhani.
Satyam. Atta nabusakaling eva asti. Satyam.
Dhaniyavada.
Okay. Any questions on what we have done so far?
No questions. You covered everything.
Okay. Is a pure question
on what we have. Wow. Question is more on what we are going to do next week with so much of content.
So,
practice.
Yes.
We badly need to practice.
Honestly, you know, I'm see how Natarajan actually uploads these quick MP3s every day. It's more like, you know, Vartha Valil, you know, headlines for the day, you know, on what he's doing. By reading those, you know, we know, I got to know about his friend in London as well. So, really encourage everyone to actually, you know, listen to us. You know. Sure, you know, there will be mistakes, but that's fine. You know, you at least know how he's thinking, or, you know, even, please, you, everyone can upload a quick, small audio file there for sure. I'll definitely review them, and I'll give you my feedback as well, but please do something like that. You can read, you will remember, sure, but if you can't talk, well, maybe if your aim is just to actually read and not talk, that's fine too. But it would be very nice if you can speak in Sanskrit as well. Okay, I have uploaded everything there. You should have all the material. So yeah, please practice, and if you have any questions, let me know.
Thank you, sir.
Dhanyavaad.
Thank you.
Thank you. Thank you.